अथ द्वितीयोऽध्यायः संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणम् विशीदतम् इदं वाक्यम् उवाच मधुसूदनः श्रीभगवानुवाच कुतस्त्वा कष्मलम् इदम् विषमे समुपस्थितम् अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन क्षुद्रम् हृदय दौर्बल्यम् त्यक्त्वोत्तिष्ठ परम् तपा कथं भीष्ममगं संख्ये द्रोणं च मधुसूदना इषुभिः प्रतियोत्स्यागि पूजागौ अधिसूदना मपीह लोके हत्वार्थकामां गुरुनिघैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि बालो जयेयु यालेव हत्वा न जिजीविषामः एव स्थिता प्रमुखे धातराष्ट्राः यच्छेयस्यान् निश्चितम् ब्रूहितम् मे शिष्यस्येकम् शाधि माम् त्वाम् प्रबन्धम् महि प्रपश्यामि ममापनुद्यात् यच्छोकमुच्छोषणम् इन्द्रियाणाम् अवाप्य भूमौ असपत्नम् वृद्धम् राज्यम् सुराणामपि याधिपत्यम् संजय उवाच एवमुक्त्वा ऋषिकेशं गुडाकेशः परं तपा नयोत्स्ये इति गोविन्दम् उक्त्वा तूष्णीं बभूवः प्रहसन्निव भारत सेनयोरुभयोर्मध्ये विशीदन्तमिदं वचः शोचस्त्वम् प्रज्ञावादांश्च भाषसे गतासून् अगतासूंश्च नानुशोचन्ति पण्डिताः चैव न भविष्यामः सर्वे वयमतः परम् पुरुषर्षभा సమదుఃఖ సుఖం ధీరం సోమృతత్వాయ కల్పతే. అవినాశితు తద్ధి ఏన సర్వమిదం తదం వినాశం అవ్యయస్యాస్య న కశ్చిత్ కర్తుమర్హతి. శరీరిణః అనాశినో ప్రమేయస్య తస్మాద్యుధ్యస్వ భారత. మన్యతేహకం ఉభౌతౌ న విజానీతో నాయం హంతి న హన్యతే. కదాచిత్ నాయం భూత్వా భవితావాన భూయః అజో నిత్యః శాశ్వతోయం పురాణో నగన్యతే హన్యమాదే శరీరే. చైనం पितुम् अर्हसि धर्म्याद्धि युद्धा श्रेयोन्यत् क्षत्रियस्य न विद्यते। क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम्। अथ चेत्त्वमिमं धर्म्यम् करिष्यसि ततस्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि। अकीर्तिम् चापि भूतानि कथयिष्यन्ति देव्यया संभावितस्य च अकीर्तिः मरणात् अचिच्यते। मंस्यन्ते त्वां महारथाः येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम्। वदिष्यन्ति तवाहिताः न्यूनम्